विष्णु सहस्रनाम महाभारत के अनुशासन पर्व में है। भीष्म पितामह ने युधिष्ठिर के सामने इसका पाठ दिया। इस स्तोत्र में वेद काल से लेकर पुराण काल तक ईश्वर के लिए जितने भी नाम का उपयोग हुआ है उनका संकलन है। विष्णु सहस्रनाम में शिव के नामों को भी विष्णु का पर्याय मान लिया गया है। लोकमान्य तिलक इसे भक्तिकोश कहते थे। भक्तगण आज भी इस स्तोत्र का नियमित पाठ करते हैं।
ओम नमो भगवते वासुदेवाय। ओम विष्णुर्वषट्कारो भूतभव्यभवत् प्रभुः भूतकृत् भूतकृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमागतिः अव्ययपुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च योगो योगविदान्नेता प्रधानपुरुषेश्वरः नारसिंहवपुश्रीमान् केशवपुरुषोत्तमः सर्वशर्वशिवस्थाणुर्भूतादिर्निधिरव्ययः सम्भवो भावनो भर्ता प्रभव प्रभुरीश्वरः स्वयंभूशंभुरादित्यपुष्कराक्षो महास्वनः अनादिधनो धाता विधाता धातुरुत्तमः अप्रमेयो ऋषिकेश पद्मनाभोमर प्रभुः विश्वकर्मा मनुस्पर्शा स्थविष्ठस्थविरोध्रुवः अग्राह्यशाश्वतकृष्णो लोहिताक्षप्रदर्दनः प्रभूतस्त्रिकोभधाम पवित्रं मङ्गलं परम् ईशानप्राणदप्राणो ज्येष्ठश्रेष्ठप्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुराधर्षकृतज्ञकृतिरात्मवान् सुरेशशरणं शर्म विश्वरेता प्रजाभवः अहस्संवत्सरो व्याधप्रत्ययसर्वदर्शनः अजः सर्वेश्वरसिद्धसिद्धिस्सर्वादिरच्युतः वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः वसुर्वसुमनः सत्यस्तमात्मा संवितस्तमः अमोघः कुण्डलीकाक्षो वृषकर्मः वृषाकृतिः रुद्रो बहुशिरा बभ्रुर्विश्वयो निश्विश्रवाः अमृतशाश्वतधाणुर्वरारोहो महातपाः सर्वगस्सर्वविद्धानुर्विश्वक्सेनो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदविद्कविः लोकाध्यक्षसुराध्यक्षो धर्माध्यक्षकृताकृतः चतुरात्मा चतुर्व्यूहश्चतुर्दंशश्चतुर्भुजः नाजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः अनघो विजयो जेता विश्वयोनिः पुनर्वसुः उपेन्द्रो वामनप्रांशुरमोघश्रुचिरूर्जः अतीन्द्रः सङ्ग्रहस्सर्वो दृढात्मा नियमो यमः वेद्यो वैद्यस्वयोगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देश्यवपुश्रीमानवेयात्मा महादृजुग महेश्वासो महीभर्ता श्रीनिवासः सदाङ्गतिः अनिरुद्धसुरानन्दो गोविन्दो गोविन्दाम्बलिः मरीचिर्दमनोहंसः सुवर्णो भुजगोत्तमः हिरण्यनाभसुतपा पद्मनाभप्रजापतिः अमृत्युस्सर्वदृक्सिंहसन्धाता सन्धिमान् स्यः अजो दुर्मर्षणशास्ता विश्वरात्मा सुरारिः गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः निमिषो निमिषस्य ग्रीवाचस्पतिवारीः अग्रणीर्ग्रामणी श्रीमान्यायो नेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपाद आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः अहस्संवर्धको वह्निरनिलो धरणीधरः सुप्रसाद प्रसन्नात्मा विश्वधृग् विश्वभुग्विभुः सत्कर्ता सत्कृतसाधुर्जन्धुर्नारायणो नरः असङ्ख्येयो प्रमेयात्मा विशिष्टशिष्टकृच्छुभिः सिद्धार्थसिद्धसङ्कल्पसिद्धिरसिद्धिसाधनः वृषाहि वृषभो विष्णुर्विषभर्वा वृषोदरः वर्धनो वर्धमानश्चो विविक्तश्रुतिसागरः सुभुजो दुर्धरो वाग्भीमहेन्द्रो वसुतो वसुः नैकरूपो बृहद्रूपश्चिविष्टप्रकाशनः ओजस्तेजोद्युतिरप्रकाशात्मा प्रतापनः वृद्धस्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः अमृतांशोद्धो वानुष्यशबिन्दुःसुरेश्वरः औषधम् जगतस्य दुःसत्यधर्मपराक्रमः भूतभव्यपवन्नादः पवनः पावनो नरः कामः कामकृतान्तः कामः कामप्रभुः युगादिकृद्युगावर्तो नैकमायो महाशनः अदृश्यो व्यक्तरूपश्च सहस्रजितनन्दजित इष्टो विशिष्टश्चिष्टेष्टश्चिखण्डी नहुषो वृढः क्रोधः क्रोधकृत्कर्ता विश्ववाहुमीयः अच्युतः प्रजः प्राणः प्राणदो वासवानुजः अपान्यजिरजिष्ठानोम प्रमत्तः प्रतिष्ठितः स्कन्धस्कन्धतरो दुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुरादिदेव पुरन्दरः अशोकस्तारणस्तारशूरशौरिर्जनेश्वरः अनुकूलशतावर्तः पद्मी पद्मनिवेशनः पद्मनाभोरविन्दाक्षः पद्मगर्भशरीरभृत् महर्धिरृद्धो वृद्धात्मा महाक्षो गरुडध्वजः अतुलश्चरभो भीमः समयज्ञो हविर्हरिः सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः वृक्षरोहितो मार्गो हेतुर्दामोदरः सह महीधरो महाभागो वेगवान् विराजनः उद्भवाक्षोणो देवश्रीगर्भ परमेश्वरः करणम् कारणम् कर्ता विकर्ता गहनो गुहः व्यवसायो व्यवस्थान संस्थानस्थानदो ध्रुवः परधिः परमस्पष्टः सृष्टः पुष्टः सुवेक्षणः रामो विरामो विरजो मार्गो नेयो नयो नयः वीरशक्तिमतांश्रेष्ठो धर्मो धर्मविदुत्तमः वैकुण्ठः पुरुषः प्राणः प्राणः प्रणवः पृथुः हिरण्यगर्भश्चतुघ्नो व्याप्तो वायुरलोक्षयः ऋतुस्सुदर्शनकालः परमेष्ठी परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारस्तावरस्थाणो प्रमाणम् बीजमव्ययम् अर्थोऽनर्थो महाकोशो महाभोगो महाधनः अनिर्विण्णस्थविष्ठो भूर्धर्मयोपो महामहः नक्षत्रनेमिर्नक्षत्री क्रमः कामसमीहः यज्ञो महेज्यश्च कृतस्तत्रंसदाङ्गलिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सुव्रतसुमुखसूक्ष्मसुघोषसुगतसुहृत मनोहरोचितक्रोधो वीरहाहुर्विदारणः स्वापनस्ववशो व्यापी नैकात्मा नैककर्मकृत वत्सरो वत्सरो वत्सीरत्नगर्भोधनेश्वरः धर्मगुप्धर्मकृद्धर्मी सदतत्क्षणमक्षरम् अभिज्ञाता सहस्रांशुर्विधाता कृतलक्षणः गवस्तिनेमि सत्त्वस्तस्मिंहो भूतमहेशः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः शरीरभूतभृद्गोप्ता कपीन्द्रो भूरिदक्षिणः सोमपो मृतवः सोमः पुरुहितपुरुषतमः विनयो जयस्रत्यनन्दो दाशारहस्रात्मनापलिः जीवो जीवदासाक्षी मुकुन्दो मितविक्रमः अम्भो निजिरनन्तात्मा महोदधिषयोऽन्तरः अयो महारस्वाभाव्यो निदामितः प्रमोदः आनन्दो नन्दोऽनन्दः सत्यधर्मः त्रिविक्रमः महर्षिकविराजार्य कृतज्ञो मेदिनीपतिः त्रिपदस्त्रिजराध्यक्षो महाशृङ्गकृतान्तरः महावराहो गोविन्दस्वेण कनकाङ्गली कुह्यो गभीरो गहनो गुप्तश्चक्रकरादरः वेदास्वाङ्गो जिरकृष्णो दृढसङ्कर्षणो शिवः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः भगवान् भगवानन्दी वनमादिहरायुधः आदित्यो ज्योतिरादित्यस्तैष्णो गतिसत्तमः सुधन्वाखण्डपरशुरदारुणो द्रविणप्रदः निवस्पृत्सर्वदुर्व्यासो वाचस्पतिः तिसामासामगस्ताम निर्वाणम् भेषजम् विषभ सन्न्यासकृच्छमश्चान्तो निष्ठाशादिपरायणम् शुभाङ्गश्चान्दशकुवलेशयः गोहितो गोप्रजगोप्ता वृषभाक्षो वृषप्रियाः अनिवर्ति निवृत्तात्मा संक्षेप्ताक्षेमकृशिवः श्रीवत्सवक्षा श्रीवास श्रीमति श्रीमताम्बरः श्रीधर श्रीश्रीनिवास श्रीनिधि श्रीविवावनः श्रीधर श्रीकरश्रेय श्रीमान् लोकत्रयाश्रयः स्वक्षस्वङ्गश्रदानन्दो नन्दिर्ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा सत्येर्निश्चिन्नसंश्रयः
उदीर्णः सर्वदश्चक्षुरनीशश्चाक्षरस्थिरः
भूषयो भूषणो भूतिर्विशोकशोकनाशनः अर्चिष्मानर्जः कुम्भोऽभिशुद्धात्मा विशोधनः अनिरुद्धो प्रतिरथ प्रद्युम्नो मितविक्रमः कालनेमिहावीरश्च वृषूरजनेश्वरः त्रिलोकात्मा त्रिलोकेशः केशवः केश्याहरिः कामदेव कामपादः कामीकान्तः कृतागमः अनिर्देशवपुरविष्णुर्वीरोऽनन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महातेजा महोरगः महाक्रतुर्महायज्वा महायज्ञो महाहविः स्तव्यस्तव प्रियस्तोत्रम् स्तुतिस्तोतारणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिनामयः मनोजवस्तीर्थकरो वसुवेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुनाविः सद्गतिः सत्कृतिः सत्तासद्भूतिः सत्परायणः शूरसेनो यश्रेष्ठस्सन्निवासस्वयामः भूतावासो वासुदेवः सर्वासु निलयो नः दर्पः दर्पदो दृप्तो दुर्धरोधा पराजितः विश्वमूर्तिर्महामूर्तिर्दीपदमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तश्रतमूर्तिश्चदानः एकोनैकस्सवः कः किं यत्तत्पदमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्द्रनाङ्गजी वीरः विषमशून्यो ध्रुवाशीरजलश्चलः अमानी मानदो मान्यो लोकस्वामी त्रिलोकद्रु सुमेधा मेधयोधन्यस्सत्यमेधाधराधरः तेजो वृषोद्युतिधरः सर्वशस्त्रग्राङ्गः प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपाद समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः दुर्लभो दुर्गमो दुर्गो दुरावासो दुरार्हा शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भवस्सुन्दरस्सुन्दो रत्नाभस्तुलोचनः अर्को वाचतनशृङ्गी जयन्तः सर्वविजयी सुवर्णबिन्दुरक्षोभ्यः सर्वभागीश्वरेश्वरः महारथो महाभरथो महाभूतो महाघिः कुन्दः 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 पर्जन्यपावनिलः अमृतांशो मृतवपुः सर्वज्ञः सर्वतोम्भः सुलभः सुव्रतः सिद्धश्शत्रुजिच्छत्रुरापणः न्यक्रोधो दुम्बरोश्चत्तश्चाणूरान्वनिषूनः सहस्रार्चिः सप्तयुः सप्तविधाः सप्तवाहनः अमूर्तिरनवोशिम्भ्यो भयकृद्भयनाशनः अणुर्बृहत्कृतसूदो गुणवृन्निर्गुणो महान् अधृतस्वधृतस्वास्य प्राग्वंशो वंशवर्धनः भारभृत्कथितो योगी योगीशः सर्वकामणः आश्रमश्रमणसुवर्णो वायुवाहनः धनुर्धरो धनुर्वेदो दण्डोदमयितादमः अपराजितः सर्वसहो नियन्ता नियमो यमः सत्त्ववान् सात्विकः सत्यसत्यधर्मपरायणः अभिप्रायप्रियाहोरः प्रियकृत्प्रीतिवर्धनः विहाय सगतिर्ज्योतिसुरुचिर्हुतभुग्विभुः रविर्विलोचनः सूर्यः सविधारविलोचनः अनन्तो हुतभुभोक्ता सुरदो निग्रजोग्रणः अनिर्विण्यः सदामर्षीलोकाधिष्ठानमद्भुतः सनातनातनतमः कविः कविरव्ययः स्वस्तिरः स्वस्तिकृस्वस्ति स्वस्तिभुस्वस्तिरक्षणः अरौद्रः कुण्डलीशक्लीविक्रम्योषिदरासनः शब्दादिकशब्दशः श्रीरजर्वरीकरः अक्रूरः केशरो दक्षो दक्षिणः क्षम्याम्बरः विद्वत्तमोऽपि तवयः पुण्यश्रवणकीर्तनः उत्तारणो दुष्कृत्यः पुण्यो दुःस्वप्नाशनः वीरः रक्षणस्तन्तो जीवनः पर्यवस्थितः अनन्तरूपोऽनन्तश्रीर्जितमन्निर्भयापः चतुरस्रोगवीरात्मा विदिशोऽव्याधियोजितः अनादिर्भूर्भुवनग्निर्सुवीरोऽर्शिराङ्गदः जननो जनजन्मादिर्भीमो भीमपराक्रमः आधारनिलयोधाता पुष्पः सः प्रजागरः ऊर्ध्वगः सत्पदाचारः प्राणदः प्रणवपणः प्रमाणम् प्राणजलप्राणवृत्प्राणजीवनः तत्त्वम् तत्त्वविवेकात्मा जन्मवृत्युजरादिवः ऊर्ध्वस्वस्तरुस्तारस्तभिः प्रभिधामहः यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः यज्ञभृद्यज्ञकृतियज्ञी यज्ञभुव्यज्ञसाधनः यज्ञान्तकृतियज्ञभुयो मन्नमन्नाथ एव चो आत्मयो निष्वयम् जातो वैभानस्तामगायनः देवीनन्दनस्रक्षाक्षिलीशपापनाशनः शङ्खभृन्दन्दकीशक्लीशाङ्गलन्माकलाशः तथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः सर्वप्रहरणायुध ॐ नमः।